अथ एकविंशः पाठः चतुर्थः खण्डः। अथान्यस्मिन् दिने प्रभावती शुकं वप्रच्छ। शुकोप्याह याहि देवि विजानासि यदिजारसमन्विता सज्जनीव पुरा वक्तुम् भर्तुरग्रे कतग्रहे। प्रभवत्याः किमेतत् कीरोब्रवीत्। अस्ति चन्द्रपुरं नाम नगरम्। तत्राभूद् वर्धकिः शूरपालाख्यः श्रीमान्। तस्य सज्जनी नाम भार्या अत्यन्तं परपुरुषलम्पटा। ताञ्च तद्गृहस्थां देवको नाम रमते। इति लोकादेतदाकर्ण्य वर्धकिः कपटेन गृहान्निर्गत्य प्रातः सन्ध्यायामच्छन्नः समागत्य तल्पस्याधोभागे स्थितः। सा च जारेण सह तत्रारूढा पत्या केशेषु गृहीता कथं मुच्यते। उत्तरम्, सा पत्या धृता सती द्वितीयपतिमुखमालोक्य प्राह मया तव कथितं यद् रथकारो मम पतिर्गृहे न विद्यते। सचागतस्तव तदैव औचित्यं विधास्यति। यद्यपि पूर्वं पत्या त्वदीयं द्रव्यमपहृतं तथापि क्षन्तव्यम्। रथकृति समागते तव गृहं गमिष्यामि। युवयोः सङ्गतिं वा करिष्ये। नात्र संशयः। इति कथां श्रुत्वा प्रभावती सुत्ता।